भवता यत् प्रतिपादितं तत् सत्यमिति भाति महोदय. सर्वानपि पुरोहितजनान् अपि च इच्छवः जनाः वर्तन्ते, तानपि सर्वान् योजयित्वा एकं सङ्घटनात्मकं कार्यं कृत्वा कार्यमग्रे नेतव्यं भवति. तदर्थं वयं प्रयतमानाः एव स्मः. किन्तु बाधा कुत्र वर्तते इत्युक्ते, पुरोहिताः सर्वेपि भिन्नभिन्नकार्येषु रताः अभवन्. कारणं किम् इत्युक्ते, इदानीं समाजे पुरोहितानाम् अभावः अपि वर्तते श्रीमन्. विद्यमानानां पुरोहितानां केवलं तेषां समयस्य अभावकारणेन तेषां रुचिः नास्ति इति अहं कदापि न वदामि. यतः अहं बहून् पुरोहितजनान् मिलितवान् आसम्, तैः सह सम्भाषणमपि कृतवान् आसम्. रुचिः वर्तते, किन्तु तेषां मन्दिरे वेतनं बहु न्यूनं भवति, धन आर्जनमपि तेषां बहु न्यूनं भवति. तेनैव कुटुम्बपूरणं, कुटुम्बपालनं, पोषणं, वर्धनम् इत्यादिकं किञ्चित् तेषां स्वकीयकार्यरताः भवन्ति. कुटुम्बपोषणे ते निमग्नाः सन्ति इति कारणेन इदानीं संस्कृतस्य स्थितिः तु अवर्णनीया वर्तते. तेपि केचन उत्तमाः सन्ति, केचन सामान्यपुरोहिताः अपि वर्तन्ते. ते संस्कृतम् इत्युक्तेपि न जानन्ति, केवलं द्वित्रान् मन्त्रान् किं येन केन प्रकारेण सम्यक् ज्ञात्वा पुरोहित पौरोहित्यादिकं कुर्वन्ति. ते तु वस्तुतः चिन्तयन्ति, वदन्ति अपि स्वयं, एते जनाः किं वदामः, अत्यन्त अल्पाः सामान्याः जनाः, भवतां प्रयत्नं तु निरर्थकमित्यपि अस्मान् निरासयन्ति, नैराश्यम् अस्मासु जनयन्ति. तादृशानपि अहं दृष्टवान् आसम्. द्विवारं त्रिवारं पुरोहितानां गोष्ठीं तु योजितवान् आसम्. केचन उत्सुकतां प्रदर्शितवन्तः, केचन किञ्चित् क्लेशमपि प्रकटितवन्तः. असाध्यम् असाध्यमिति केचन न उक्तवन्तः, साध्यमेव किन्तु कष्टसाध्यमिति ते अवदन्. किन्तु तदर्थं ते समयं दद्युः महोदय. प्रधानतया समयदानम् अत्यन्तम् आवश्यकं भवति. अस्माकं तु बुद्धिबलम् आवश्यकं प्रथमं तावत्. बुद्धिजनान् सर्वानपि एकत्र सङ्घटीकृत्य तान् सर्वानपि नीत्वा अग्रे गन्तव्यम् इत्युक्ते महदेकं कार्यमेव. एतावत्पर्यन्तम् अस्माकं भाग्यनगरे तु संस्कृतभवनं नास्ति. तदर्थमपि वयं प्रयतमानाः स्म. वस्तुतः अन्येकमहं रहस्यं वक्तुम् इच्छामि अनन्तरम् एतस्य. इदानीं तु एतान् विषयान् शृण्वन्तु. अनन्तरम् एकं मूल्यभूतम् अत्यन्त किं वदामः मूल्ययुतसन्देशमहं श्रावयितुमिच्छामि. शृण्वन्तु, शृण्मः वयम्.